ॐ नमस्ते गणपतये, त्वमेव प्रत्यक्षम् तत्त्वमसि, त्वमेव केवलम् कर्तासि, त्वमेव केवलम् धर्तासि, त्वमेव केवलम् हर्तासि, त्वमेव सर्वम् कलविदम् ब्रह्मासि, त्वम् साक्षादात्मासि नित्यम् ऋतमस्मि, सत्यम् अस्मि, अवत्वम् माम् अववक्तारम् अवश्रोतारम् अवधातारम् अवधातारम् अवानुजानमवशिष्यम् अवपश्चात्तात् अवपुरस्तात् अवोत्तरात् अवदक्षिणात्तात् अवचोर्धात्तात् अवाधरात्तात् सर्वतो माम् पाहि पाहि समन्तात् त्वम् वाङ्मयस्त्वम् चिन्मयः त्वमानन्दमयस्त्वम् ब्रह्ममयः त्वम् सच्चिदानन्दाधिगीयोऽसि त्वम् प्रत्यक्षम् ब्रह्मासि त्वम् ज्ञानमयो विज्ञानमयोऽसि सर्वम् जगदिदम् दत्तो जायते सर्वम् जगदिदम् दत्तस्तिष्ठति सर्वम् जगदिदम् त्वयि दयमेधि सर्वम् जगदिदम् त्वयि प्रत्येति त्वम् भूमिराको नलो निलो नभः त्वम् चत्वारि वाक्पदानि त्वम् गुणत्रयातीतः त्वम् देहत्रयातीतः त्वम् कालत्रयातीतः त्वम् मूलाधारस्थितोऽसि नित्यम् त्वम् शक्तित्रयात्मकः त्वा योगिनोऽध्यायन्ति नित्यम् त्वम् ब्रह्मा त्वम् विष्णुस्त्वम् रुद्रस्त्वमिन्द्रस्त्वमग्निस्त्वम् वायुस्त्वम् सूर्यस्त्वम् चन्द्रमास्त्वम् ब्रह्म पूर्वस्वरो गणादिम् पूर्वमुच्चार्य वर्णादिम् तदनन्तरम् अनुस्वारः परतरः अर्धेन्दुलसितम् तारेण रुद्धम् एतत्तवमनुस्वरूपम् नकारः पूर्वरूपम् अकारो मध्यमरूपम् अनुस्वारष्टान्यरूपम् बिन्दुरुत्तररूपम् नादसन्धानम् संहिता सन्धिः सैषा गणेशविद्या गणकर्षिः गायत्रीछन्दः गणपतिर्देवता ॐ गं गणपतये नमः एकदन्ताय विद्महे वक्रतुण्डाय धीमहि तन्नो दन्तिः प्रचोदयात् एकदन्तम् च दुर्हस्तम् पाशमङ्कुशधारिणम् रथम् च वरदम् हस्तैर्बिभ्राणम् मूषकध्वजम् रक्तम् लम्बोदरम् शूर्पकर्णकम् रक्तवासलम् रक्तगन्धानुलिप्ताङ्गम् रक्तपुष्पैः सुपूजितम् भक्तानुकम्बिनम् देवम् जगत्कारणमच्युतम् आविर्भूतम् च दृढ्यादौ प्रकृतेः पुरुषात्परम् एवम् ध्यायति यो नित्यम् स योगी योगिनाम् वरः नमो व्रातपतये नमो गणपतये नमः प्रमदपतये नमस्ते अस्तु लम्बोदरायैकदन्ताय विघ्ननाशिने शिवसुताय वरदमूर्तये नमः।